त्रिर्यमामनुषो देवता तात्रेरोचना दिव्याधा रजन्त अर्चन्ते त्वा मरुतः पूत दक्षास्तमेषा मृषिरिन्द्रासि धीराः अनुजदेम् मरुतो मन्दसानमार्चन्निन्द्रम् पपिवांसम् सुतस्य आदत्तवज्रमभियत हिंहन्नपो जह्मेरसृजत्सर्तवा उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेजोः तद्धि हव्यम् मनुषेका अविन्ददहन्न हिम्बिवाङ् इन्द्रो अस्य आद्रोदसे पितरम् विष्कभाजत्संविव्यानश्चिद्भिजसे मृगङ्काः जिगर्तिमिन्द्रो अपजर्गुराणः प्रतिश्वसन्तमवदानवम् हन्न अधक्रत्वा मघबन्धुभ्यम् देवा अनुविश्वे अददुः सोमपेयम् यत्सौर्यस्य हरितः पदम् देः पुरः सतेरुपरा एतशेखः न भजदस्य न वतिम् च भोगान् साकम् वज्रेण मघवा विभृश्चत अर्चन्तेन्द्रम् मरुतः सधस्थेत्रैष्टभेन वचसा बाध तद्याम् सखा सख्ये अपचत्तोजमग्निरस्य कृत्वा महिषा त्रिशतानि त्रिसाकमिन्द्रो मनुषः सरांसि सुतम् बिभद्व्रत्रहत्या जसोमम् त्रिजच्छत महिषाणामघोमास्त्रिसरांसि मघवा सोम्यापाः कारण विश्वे अह्वन्त देवाभरमिन्द्रा जयदहिम् जघान उशनायत्सहस्यै ऐरजातम् गृहमिन्द्रजोजभानेभिरश्वैः वन्वानो अत्र सरथै यजाथ कुत्सेन देवैरवनोर्हशुष्णम् प्राञ्जच्छक्रमबृहस्सौर्यस्य कुत्सा जान्यद्वरिभो जातवेकः अनासोदस्योऽङ्ग्रवृणो वधेन निदुर्जोड आवृणम् भृद्रवाचः स्तोमासस्त्वा गौरिवेतेरवर्धन्नरन्धयो वैदधिनाय पिप्रम् आत्मा मृजुष्वा सख्याय चक्रे पचन् पक्तेरपि भस्सोममस्य न भग्वासस्वतसो मास इन्द्रम् दशग्वासो अभ्यर्चन्त्यर्कैः द्रव्यम् चिदोर्वमभिधानवन्दन्तम् चिन्नरशमाना अपौव्रन् कथो न ते परिचराणि विद्वान् वीर्यामघवन्या चकर्थ याचो नव्या कृणवश्य विष्ठप्रेदुताते विदधे शुब्रवाम एता विश्वा चक्रवाङ्गिन्द्रभोर्यपरेतो जनुषा वीर्येण या चिन्न वज्रन् कृणवो दधृष्वान्नते वर्तात विश्या अस्ति तस्याः इन्द्रब्रह्म क्रियमाणाजुषस्वजाते शविष्ठनव्या अकर्म वस्त्रे एव भद्रा सुकृता वसोजोरथन्नधीरस्वपा अदक्षम्